रामेण सीतया च अयोध्याम् ईयते स्म। तत्र तु रामः जनैः उच्यते, पापगृहे सीतया चिरं कालं उष्यते स्म। तद् भवान् भार्याम् नगरात् निर्गमयतु, एवम् अस्मद् नगरं शुचि पुनर्भविष्यति इति। तत् श्रुत्वा रामेण महाविषादम् अगम्यत। तेन तु लक्ष्मणः अदिश्यत, अद्य अहम् सीताम् तित्यक्षामि, तत् त्वया सा वनम् आनीयताम् इति।